ध्यानम् ऐङ्कारद्वय मध्य संस्थिता लसद्भूबीजवर्णात्मिका दुष्टारातिजनाक्षि वक्त्रकरपत्सम्भिनी जुम्भिनी लोकान्मोहयन्तीं दृशा च महासादं श्राकरालाकृतिम् वार्तालीं प्रणतोऽस्मि सन्तत महं घोणीं रथोपस्थिताम् श्रीगिरिरथमध्यस्थां पोत्री मुखीं चिद्गनैकसद्रूपां हलमुसलायुधहस्तां नौमि श्रीदण्डनायिकामम्बाम् वाग्भवभूवागीशीभीजत्रयठार्णवैश्च संयुक्ताम् कवचास्त्रानलजायायतरूपां नौमि शुद्धवाराही स्वप्नफलबोधयित्रीं स्वप्नेशीं सर्वदुःखविनिहन्त्रीं नतजनशुभकारिणीं श्रीगिरिवदनां नौमि सच्चिदानन्दा पञ्चदशवर्णविहितां पञ्चम्यम्बां सदा कृपालम्बाम् अञ्चितमणिमयभूषां चिन्तितफलदां नमामि वाराहीं विज्ञापन्निर्मूलनविद्येशीं सर्वदुःखविनिहन्त्रीं सकलजगत्संस्तम्भनचतुरं श्रीस्तम्भिनीं कलये दशवर्णरूपमनुवरविशदा दुरगाधिराजसम्रूढां शुभदां दिव्यजगत्त्रयवासिनीं सुखदायिनीं सदा कलये उद्धत्रीक्ष्मां जलनिधिमग्ना दंष्ट्राग्रलग्नभूगोलाम् भक्तनदीमोदमानामुन्मत्ताकारभैरवीं वन्दे सप्तदशाक्षररूपां सप्तोदधिपीठमध्यगां दिव्यां भक्तात्तिनाशनिपुणां भवभय विध्वंसिनीं परां वन्दे नीलतुरगाधिरूढां नीलाञ्चितवस्त्रभूषणोपेतां नीलाभां सर्वतिरस्करिणीं सम्भावये महामायां सलसङ्ख्यमन्त्ररूपां विलसद्भूषां विचित्रवस्त्राढ्यां सुललिततन्वीं नीलां कलये पशुवर्गमोहिनीं देवीं वैरिकृतसकलभीकरकृत्या विध्वंसिनीं करालास्यां शत्रुगणभीमरूपां ध्याये त्वां श्रीकिरातवाराही चत्वारिंशत्वर्णकमनुरूपां सूर्यकोटिसङ्काशां देवीं सिंहतुरङ्गां विविधायुधधारिणि किटीं नौमि धूमाकारविकारां धूमानलसन्निभां सदा मत्तां परिपन्थियूथहंत्रीं वन्दे नित्यं च धूम्रवाराहीं वर्णचतुर्विंशतिकां मन्त्रेशीं समदमहिषपृष्ठस्थां उग्रां विनीलदेहां ध्याये कीरिवक्त्रदेवतां नित्यं बिन्दुगणतात्मकोणां गजदलावृत्तत्रयात्मिकां दिव्यां सदनत्रयसंशोभितचक्रस्थां नौमि सिद्धवाराही वाराही स्तोत्रमेतद्यः प्रपठेद्भक्ति संयुतः सवै प्राप्नोति सततं सर्व सौख्यास्पदं पदम्। इति श्री वाराही देवी स्तवम्।